ॐ अपैदु मृत्युरमृतन्न आगन्वैवस्वतो नो अभयं कृणोदु पर्णं वनस्पतेरिवापि नशीयदाघुं रहिः सचतान् नश्यतीपदिः परं मृत्यो अनुपरेहि पन्दा यस्ते स्वैतरो देवयानाद् चक्षुष्मदे शृण्वते देहे ब्रवीमि मानवप्रजागुं वीरिषो मोद वीरान् वादं प्राणं मनसान् वारवामहे प्रजापतिं यो भुवनस्य गोपाः स नो मृत्यो श्रायतान् पात्वगुम् असोज्योग्जीवा जरामशीमहि अमुत्र भूयादयद्यमस्य बृहस्पते अभिशस्ते रमुञ्जः प्रत्योगदामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शशीभिः सर्गैरग्निमिन्दान उभौ लोकौ सनेमहम् उभयोर्लोकयोर्द्वादिमृत्युन्दराम्यहम् हरिहुं हरन्दमनुयन्ति देवा विश्वस्येशानं वृषभं मदीना ब्रह्मस्वरूपमनुमेतमागादयनं मा विवधीर्विक्रमस्व मा चिदो मृत्यो मा वधीर्मा मे बलं बिबृहो मा प्रमोषीः प्रजां मामेरीरिष आयुरुग्रनृचक्षः सन्त्वा अविशा विदेम मानो मकान्दमुदमानो अर्भकं मान उच्छन्दमुदमान उच्छिदम् मानो वदी पिदरं मोदमादरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामिदो वदीरविष्मन्दो नमसा विदेमदे प्रजापदेन त्वदेदान्यन्यो विश्वा जातानि परिदा बभूव यत्कामास्ते जुघुमस्तन्नो अस्तु वयग्रस्याम पदयोरहीणाम् यद इन्द्रभयामहे ततो नो अभयं कृति मघवन् शक्ति तव तन्न हूदये विद्विषो विमृतो जगि स्वस्तिदा विषस्पतिर्वृत्रः विमृतो वशी वृषेन्द्रपुरयेदुनः स्वस्तिता अभयङ्करः त्र्यम्बकं यजामगे सुगन्धिं पुष्टिवर्धनम् उर्वारुगमिव वन्दनान्मृत्योर्मुक्षीयमामृताद् अपमृत्युमभक्षुतमभेदः शपदञ्जहि अदानोऽग्नहावहराय स्पोषकं सहस्रिणम् एते सहस्रमयुधं पाशामृत्योमर्त्याय कन्दवे तान्यज्ञस्य मायया सर्वा नवयजामहे मृत्यवेश्वागा जातवेदसे सुनवामसो ममरादि यतो निदहादिवेदः स नः परिषदति दुर्गाणि विश्वानावे वसुन्धुं दुरिदाद्यग्निः भूर्भुवस्वः ओजो बलं ब्रह्मक्षत्रं यशो मगध सत्यन्तपो नाम रूपममृतं चक्षुश्रोत्रं मन आयुः विश्वं यशो महः समन्तभोगरोपाः जातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युदोऽसि सम्प्रजाभ्यो यजमानाय लोकम् ऊर्जं पुष्टिं तदद व्यापवृत्स्व मृत्युर्न शत्वायुर्वर्दधाम्बुः मृत्युर्न शत्वायुर्वर्दधाम्बुवः मृत्युर्न शत्वायुर्वर्दधागुंसुवः मृत्युर्न शत्वायुर्वर्दधाम्बुर्भुवःसुवः मृत्युर्न शत्वायुर्वर्दधा ॐ शान्तिः शान्तिः शान्तिः।